इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। निर्वाचनायोगेन पञ्चराज्येषु विधानसभा निर्वाचनानां घोषणा कृता। मिजोरमे, छत्तीसगढ़े, मध्यप्रदेशे, राजस्थाने, तेलंगानायां च विधानसभा निर्वाचनानि आगामि मासस्य सप्ततः त्रिंशि यावत् कारयिष्यन्ते। अथ चैतेषु पञ्चराज्येषु मतगणना दिसम्बर तृतीयायां विधास्यते। भारतीय निर्वाचनायोगेन पञ्चराज्येषु विधानसभा निर्वाचनानां कार्यक्रमस्य घोषणा विहितास्ति। मिजोरमे नवम्बर सप्तम्याम् एकस्मिन्नेव चरणे मतदानम् आयोक्ष्यते। एतदर्थम् अधिसूचना अस्य मासस्य त्रयोदश्याम् तिथौ प्रख्यापयिष्यते। छत्तीसगढ़े प्रथम चरणस्य मतदानम् नवम्बर सप्तम्याम्, द्वितीय चरणस्य च नवम्बर सप्तदशम्याम् भविष्यति। प्रथम चरणस्य कृते अधिसूचना अस्य मासस्य त्रयोदश्याम् तिथौ, द्वितीय चरणस्य च कृते एकविंश्याम् तिथौ प्रख्यापयिष्यते। अपरत्र च मध्यप्रदेशे नवम्बर सप्तदशम्याम् आयोक्ष्यमाणस्य मतदानस्य कृते अधिसूचना अक्टूबर एकविंश्याम् तिथौ प्रख्यापयिष्यते। अत्रैव राजस्थाने नवम्बर त्रयोविंश्याम् आयोक्ष्यमाणस्य मतदानस्य कृते अधिसूचना अक्टूबर त्रिंश्याम् प्रख्यापयिष्यते। तेलंगानायां नवम्बर त्रिंश्याम् एकस्मिन्नेव चरणे मतदानं भविष्यति। राज्य निर्वाचनस्य अधिसूचना नवम्बर तृतीयायां प्रख्यापयिष्यते। नवदिल्ल्यां मुख्य निर्वाचनायुक्त राजीव कुमार प्रत्यापयत् यत् एतेष् पञ्चराज्येष् विधानसभा निर्वाचनानां विशेष महत्वम् एतदर्थम् अपि अस्ति यतोहि एतद्भि आगामिवर्षस्य साधारण निर्वाचनात् पूर्वम् आयोक्ष्यमाणम् अन्तिम विधानसभा निर्वाचनं भविष्यति। संयुक्तराज्यामेरिका, फ्रांस, जर्मनी, यूनाइटेड किंगडम, इटली देशानां नेतारः अद्य संयुक्त वक्तव्यं प्रकाशितवन्तः यत् इजराइल देशे हमास उग्रवादी समूहेन कृतानां आकस्मिक आक्रमणानां निन्दा कृतवन्तः। अमेरिकीय राष्ट्रपतिः जो बाइडेन, फ्रांस देशस्य राष्ट्रपतिः इमैनुअल मैक्रॉन, जर्मनी देशस्य सचिवः स्कोल्जः, इटली देशस्य प्रधानमन्त्री जियोर्जिया मिलोनी, यूनाइटेड किंगडम इत्यस्य प्रधानमन्त्री ऋषि सुनकेन च संयुक्त वक्तव्ये उक्तं यत् हमासस्य कार्याणां कोऽपि औचित्यं नास्ति। इजराइल हमासातंकी समूहस्य च मध्ये प्रवर्तमाना संघर्षे मृतकानां संख्या एकादशशतोऽप्यधिका जाता अस्ति। प्रायः सप्तशतमिताः इजराइलदेशीयाः जनाः मृतिंगताः सन्ति। चेच्चतुश्शतमिताः जनाः गाजापट्टिकायां पञ्चतां प्रापिताः सन्ति। अस्मिन् संघर्षे परेसहस्रं जनाः व्रणिताः सन्ति इति आशंक्यते। कतिपयक्षेत्रेषु हमास आतंकिनाम् आक्रमणस्य अनन्तरं ध्वंसावशेषस्य अपाकरणम् अपि नैव जातम् अस्ति। चेत् क्वचित् युद्धं प्रचलद्येव वर्तते। अनेन कारणेनापि मृतकानां संख्या अतोऽपि समेधितुं शक्नोति। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां भारतीय क्रीडकानां दलेन, ये चीनस्य हांगचो इत्यत्र एशियाई क्रीडास् भागं भजितवन्तः, तैः सह वार्तालापं करिष्यन्ति, तान् सम्बोधयन्ति च। कार्यक्रमे प्रधानमन्त्री एशियाई क्रीडास् उत्कृष्टोपलब्धये क्रीडकान् वर्धापयिष्यन्ति, तेभ्यः भविष्यस्य प्रतियोगिताभ्यः प्रेरयन्ति च। ध्येयं यत् हांगचो इत्यत्रायोजिते एशियाई क्रीडास् भारतेन अष्टाविंशतिः स्वर्णपदकानि समेत्य सप्तोत्तर एकशतं पदकानि विजितम्। एशियाई क्रीडायां भारतस्य पदकसंख्यानुसारं सर्वोत्तमं प्रदर्शनम् आसीत्। विंशतिः त्रयोविंशतिः वर्षस्य अर्थशास्त्रस्य नोबल पुरस्कारः हार्वर्ड विश्वविद्यालयस्य प्रोफेसर क्लाउडिया गोल्डिन इत्यस्यै प्रदास्यते। रॉयल स्वीडिश अकेडमी ऑफ साइंसेज इत्यनेन ह्यः एव अस्य घोषणा विहिता। आर्थिक विज्ञान क्षेत्रे नोबल मेमोरियल पुरस्कारं स्वेरिजेस रिक्स बैंक पुरस्कारस्य रूपेण ज्ञायते। हैदराबादे क्रिकेट चषक विश्व प्रतिस्पर्धायां न्यूजीलैंड दलेन नीदरलैंड दलं नवनवतिः धावनांकैः पराजितम् इति वार्ताः।